एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नेकपा एमाले दलस्य पोलिटब्यूरो समितेः उपवेशे विधान महाधिवेशने प्रस्तोष्यमाणस्य प्रतिवेदनस्य विषये विमृष्टमस्ति। च्यासलवर्तिनी दलकेन्द्रीय कार्यालये दलाध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः अध्यक्षतायाम् उपविष्टे उपवेशे अष्टौ सदस्याः स्वकीयां धारणां व्यक्तवन्तः इति एमाले प्रचार विभाग प्रमुखः राजेन्द्र गौतमः असूचयत्। एमाले दलस्य विधान महाधिवेशनस्य पूर्वसज्जतायाः क्रमे गत बृहस्पतिवासरे उपविष्टेन सचिवालयोपवेशेन दलाध्यक्षस्य ओलिनो राजनीतिक प्रतिवेदनस्य, उपाध्यक्षस्य विष्णुप्रसाद पौडेलस्य विधान संशोधन प्रतिवेदनस्य, महासचिवस्य शंकर पोखरेलस्य सांगठनिक प्रतिवेदनस्य च प्रस्तावः पारितीकृतः आसन्। पोलिटब्यूरो समितेः उपवेशेन अनुमोदनानन्तरम् असैव श्रावणस्य पञ्चमे दिवसे सोमवासरे उपवेक्ष्यमाणेन केन्द्रीय समितेः उपवेशेन एतेभ्यः प्रतिवेदनेभ्यः अन्तिमं रूपं प्रदास्यते। नेकपा एमाले दलस्य द्वितीयं विधान महाधिवेशनम् आगामिनः भाद्र मासस्य विंशे एकविंशे च दिवसयोः ललितपुरस्य गोदावरी स्थाने आयोक्ष्यते। पोलिटब्यूरो समितेः उपवेशः अद्य प्रातः एकादशवादने पुनः वसति। नेकपा राष्ट्रिय एकता अभियानस्य संयोजकः वामदेव गौतमः नेकपा एकीकृत समाजवादी दले समाहितोऽस्ति। राष्ट्रिय सभागृहे ह्य आयोजितायां सभायाम् अभियानस्य संयोजकेन गौतमेन सहिता सम्पूर्णा समितिः समाहिता वर्तते। कार्यक्रमे नेकपा एकीकृत समाजवादी दलस्य अध्यक्षेण माधव कुमार नेपालेन, सम्मानित नेत्रा झलनाथ खनालेन च गौतमस्य स्वागतं विहितम् आसीत्। प्रतिनिधि सभायाः पूर्वाधार विकास समितौ काष्ठमण्डपस्य चक्रपथ कलंकी महाराजगंज मार्गखण्डस्य विस्तारस्य प्रगतिर्विषये विमृष्टमस्ति। समितेः ह्यस्तनोपवेशे भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः मार्गखण्डस्य विस्तारस्य विस्तृत परियोजना प्रतिवेदनस्य पूर्णतायाः अनन्तरं कार्यम् अग्रेसरत् अस्ति इति व्यज्ञापयन् काष्ठमण्डप उपत्यकायाः यातायात साधनानां घनत्वं न्यूनीकर्तुं सर्वकारेण नवीन विकल्पस्य विषये विमर्शः विधीयमानोऽस्तीति मन्त्री दाहालः असूचयत्। उपवेशे सांसदाः चक्रपथे विद्यमानं पङ्कं धूलिं च व्यवस्थापयितुं तत्र विद्यमानानि गर्तानि पूरणीयानि, चक्रपथ विस्तारे तीव्रता प्रदातव्येति च बलं दत्तवन्तः। नेपाल सर्वकारस्य कोरिया सर्वकारस्य च मध्ये वर्दिया जनपदे समावेशी ग्रामीण परियोजनायाः क्रियान्वयनाय संविदापत्रीय हस्ताक्षरणं विहितं वर्तते। अर्थमन्त्रालये ह्य आयोजिते कार्यक्रमे मन्त्रालयस्य सचिवः घनश्याम उपाध्यायः नेपालस्य कृते कोरिया देशस्य राजदूतः पार्क तैयङ च हस्ताक्षराणि विहितवन्तौ। परियोजनायाः कृते कोरिया अन्तर्राष्ट्रिय सहयोग नियोगस्य माध्यमेन कोरिया सर्वकारेण 80 लक्षाणाम् अमेरिका देशीय डलर मुद्राणां सहयोगः प्रदास्यते। बर्दिया जनपदस्य अष्टसु स्थानीय स्तरेषु सञ्चाल्यमाना परियोजनेयं 29-2000 ख्रीष्टाब्दस्य डिसेम्बर मासं यावत् क्रियान्विता भविष्यति। कार्यक्रमे अर्थ सचिवः घनश्याम उपाध्यायः कोरिया देशस्य राजदूतः पार्क तैयङ च कोरिया देशस्य सहयोगेन सञ्चाल्यमाणया परियोजनया स्थानीय सर्वकारस्य समुदायस्य च सशक्तिकरणे बलं प्रदास्यते इति धारणां व्यक्तवन्तौ। मधेश प्रदेशस्य अष्टसु जनपदेषु अनावृष्टेः अनन्तरं शुष्कतायाः कारणेन धान्यरोपणं न जातम् इत्यतः कृषि पशुपक्षि विकास मन्त्रालयेन मधेश प्रदेशस्य अष्टौ जनपदेषु विज्ञ समूहं प्रेषयितुं निर्णीतं वर्तते। समस्यानां समाधानाय तात्कालिकान् दीर्घकालिकान् च उपायान् विकल्पाश्च अध्येतुं कृषि प्राविधिकानां समूहं प्रेषयितुं निर्णीतमस्ति। ह्यः कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी मन्त्रालयस्य अन्तर्गतानां कार्यालयानां कर्मचारिभिस्सह विमर्शनं विधाय प्रत्येकं जनपदेषु द्वौ द्वौ विज्ञौ यथाशीघ्रं प्रेषयितुं निरदिशत्। मधेश प्रदेश सर्वकारेण अधिक समयं यावत् अनावृष्टेः कारणात् पेयजलस्य अपि अभावः जायमानोऽस्ति, धान्यरोपणस्य अवस्थापि न विद्यते इत्यतः कतिभ्यश्चित् दिनेभ्यः पूर्वं तानि क्षेत्राणि शुष्कताग्रस्तानि क्षेत्राणि उद्घुष्टानि आसन्। गत श्रावण मासस्य नवमे दिवसे दुर्घटनाग्रस्तस्य सौर्यवायु सेवायाः 9NMECRJ 102 कलसाइन नाम्नो विमानस्य अनुसन्धानाय संघटितेन दुर्घटना कारणानुसन्धानायोगेन स्वस्य प्रतिवेदनम् अर्पितमस्ति। ह्यः मन्त्रालये आयोजिते कार्यक्रमे आयोगस्य अध्यक्षः रतीश चन्द्र लाल सुमन, संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणे बद्री प्रसाद पाण्डे विधाय समितेः अन्तिमं प्रतिवेदनं हस्तान्तरितवान्। मन्त्री पाण्डे प्रतिवेदनं गृह्णन् प्रतिवेदनस्य क्रियान्वयनं करिष्यते इति प्रतिबद्धतां व्यक्तवान्। आयोगेन प्रतिवेदनस्य अर्पणेन सहैव मन्त्रालयेन स्वस्य वेब पोर्टले प्रतिवेदनमेतत् सार्वजनीकृतमस्ति। त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् सम्भारस्य कृते पोखरास्थानाय उड्डिनं सौर्यवायु सेवायाः विमानं धावनमार्गस्य निकटस्थे स्थले एव दुर्घटितं सत्। तत्र आरूढः 18 जनः मृतः आसन्। प्रधानमन्त्री केपी शर्मा ओली नेपाल चीन देशयोर्मित्रतायाः नूतन सन्ततौ विस्ताराय बलं ददाति। असौ सम्बन्धस्य सुदृढीकरणाय नेपाल सर्वकारस्य पक्षतः विधातव्येषु कार्येषु कथं विधापि न्यूनता न भविष्यतीति समस्पष्टयत्। नेपाल चीन देशयोः कूटनीतिक सम्बन्धस्य स्थापनायाः 70वें वर्षस्य पूरणस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते एतत् ख्रीष्टवर्षीये नेपाल चीन सांस्कृतिक शिखर सम्मेलने सम्बोधनं कुर्वाणः प्रधानमन्त्री ओली ऐतिहासिके अवसरेऽस्मिन् एवं विधानां कार्यक्रमाणां पारस्परिक सांस्कृतिक सम्बन्धस्य विस्ताराय सहयोगो भवतीति प्रत्यपादयत्। तदवसरे प्रधानमन्त्रिणा ओलिना युव सशक्तिकरण पुरस्कारेण काष्ठमण्डप महानगरपालिकायाः उपप्रमुखः सुनीता डंगोलः, व्यवसाय नेतृत्व पुरस्कारेण राजेश काजी श्रेष्ठः, वीरेन्द्र राज पाण्डे च, शिक्षोत्कृष्ट पुरस्कारेण अनुराधा शर्मा च सम्मानिताः आसन्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा कथयति भाषाभाषिणां विविधतायाः कारणेन नेपालस्य परिचयस्य संरक्षणस्य कार्यं जायमानमस्ति। नेपाल लोकतन्त्रवादी आदिवासी जनजाति महासंघस्य 28वें स्थापना दिवसस्य अवसरे सानेपावर्तिनी कांग्रेस दलीय केन्द्रीय कार्यालये पूर्वेद्यः आयोजिते कार्यक्रमे सभापतिः देउवा विभिन्न जातीनां परिचयं संरक्ष्य परिचयेन सहितस्य राष्ट्र निर्माणस्य कारणेन नेपालः सुन्दर देशः विधास्यते इति विश्वासं व्यक्तवान्। तदवसरे नेपाली कांग्रेस दलस्य सह महामन्त्री संस्कृति पर्यटन नागरिक उड्डयन मन्त्री च बद्री प्रसाद पाण्डे आदिवासी जनजातेः संवेदनशीलतां विचार्य संस्कृति सम्बद्धायाः नीतेः निर्माणस्य प्रतिबद्धतां व्यक्तवान्। प्रतिनिधि सभायाः अन्तर्गतायाः अन्तर्राष्ट्रिय सम्बन्ध पर्यटन समितेः उपवेशे गत विक्रम वर्षीयस्य उड्डयन सेवा प्राधिकरण विधेयकस्य संशोधनस्य प्रस्तावस्य विषये संशोधनकर्तृभिः जनैस्सह विमृष्टं वर्तते। ह्यः सिंहप्रासादे उपविष्टे समितेः उपवेशे सांसदः उड्डयन सुरक्षायै प्राथमिकता प्रदातव्या, अवैध विमान व्यवसाये सुवर्ण तस्करे च कठोर नीतिः अवलम्बनीया, यात्री मैत्री सेवा प्रणाल्याः विकास विधेयश्चेति उक्त्वा मन्त्रालयस्य ध्यानाकर्षणं वेदधु इति समाचारः।